ओम श्री परमात्मने नमः। अथ तृतीयोऽध्याय। अर्जुन उवाच यायसि चेत् कर्मणस्ते मता बोधिर्जनार्दन तत्किं कर्मणि घोरे मां नियोजयसि केशव। व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे तदेकं वद निश्चेत्य येन श्रेयोऽहमाप्नुयाम्। श्री भगवान उवाच लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नघ ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनां न कर्मणां नारम्भात् नैष्कर्म्यं पुरुषोऽश्नुते न स सन्न्यसनादेव सिद्धिं समधिगच्छति न हि कश्चित् क्षणमपि जातु तिष्ठत्य कर्मकृत् कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते। यस्तेन्द्रियाणि मनसा नियाम्यारभते अर्जुन कर्मेन्द्रियैः कर्मयोग मसक्तः स विशिष्यते। नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य कर्मण शरीरयात्रापि च ते न प्रसिद्धेद कर्मण यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर सह यज्ञः प्रजाः सृष्ट्वा पुरोवाच प्रजापते अनेन प्रसविष्यध्व नेशवोऽस्पृष्टकामधो देवान् भावयतानेन ते देवा भावयन्तु परस्परं भावयन्त श्रेय परमवाप्स्यथ इष्टान् भोगानि बोधेवा दास्यन्ति यज्ञभाविता तैर्दत्तान् प्रदायैर्यो यो भुङ्क्ते स्तेन एव स यज्ञश्रेष्ठाशिनः सन्तु मुच्यन्ते सर्वकेल्विषैः भुञ्जते ते त्वघं पाप ये पचन्त्यात्मकारणात् अन्नाद्भवन्ति भूतानि पर्जन्यादन्न सम्भव यज्ञाद्भवति पर्जन्यो यज्ञ यः कर्म समुद्भव कर्म ब्रह्मोद्भवं वेद्धि ब्रह्माक्षर समुद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् एवं प्रवर्तितं चक्रं नानुवर्तयति हय अभायुरेन्द्रियारामो मोघं पार्थ सजीवति यस्वात्मरतिरेव स्यादात्मतृप्तस्त मानव आत्मन्येव स सन्तुष्टस्तस्य कार्यं न विद्यते नैव तस्य कृतेनार्थो नाकृते नेह कश्चन न सास्य सर्वभूतेषु कश्चिदर्थव्यपाशय तस्मादसक्तः सततं कार्यं कर्म समाचर असक्तो ह्याचरन् कर्म परमाप्नोति पुरुषः कर्मणैव हि संसिद्धि मास्थिता जनकादय लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि यदिहं न वर्तेयं जातु कर्मण्यतन्द्रित मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वश उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहं शङ्करस्य च कर्ता स्यामुपहन्यामि महाप्रजा सक्ता कर्मण्य विद्वांसो यथा कुर्वन्ति भारत कुर्याद्विद्वांस्तशास्तचिकीर्षोर्लोकसङ्ग्रह न बुद्धिभेदं जनये ज्ञानं कर्मसङ्गिनां दोषये सर्वकर्माणि विद्वान् युक्तः समाचर प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वश अहङ्कारविमूढात्मा कर्ताहमिति मन्यते तत्त्ववेत्तु महाबाहो गुणकर्मविभागयो गुणागुणेषु वर्तन्त इति मत्वा न सज्जते प्रकृतेर्गुणसम्मूढा सज्जन्ते गुणकर्मसु तान कृष्ण विलो मंदान कृष्ण विन्न विचालये मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा निराशीर्निर्ममो भूत्वा युज्यस्व विगतज्वर ये मे मतमिदं नित्य मनो ते सन्ति मानवाः श्रद्धावन्तो न सूयन्तो नोच्यन्ते तेऽपि कर्मभिः ये ते तदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् सर्वज्ञानविमूढास्तान् वेद्धिनस्तान चेतस सदृशं चेष्टते स्वस्या प्रकृतिर्ज्ञानवानपि प्रकृतिं यान्ति भूतानि निग्रह किं करिष्यति इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ तयोर्नवशमागच्छे तोषस्य परिपन्थिनौ श्रेयान् स्वधर्मो विगुणः परधर्मास्वनोष्ठितान् स्वधर्मे निधनं श्रेयः परधर्मो भयावह अर्जुनवाच अथ केन प्रयुक्तोऽयम् पापं चरति पुरुष अनेच्छन्नपि वा स्नेय बलादिव नियोजित श्रीभगवान् उवाच काम एष क्रोध एष रजो गुणसमोद्भव महाशनो महापाप्मा विध्येनमिह वैरिणाम् धूमेनाभियतोऽवन्ये यथादर्शो मलिन च यथोल्बेनावृतो गर्भस्त तथा तेनेदमावृतम् आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेय दुष्टोरेणानलेन च इन्द्रियाणि मनोबुद्धि यस्याधिष्ठानमुच्यते एतैर्विमोहयत्येष ज्ञानवावृत्य देहिनम् तस्मात् त्वमिन्द्रियाण्यालो नियाम्य भरतर्षभ पाप्मानं प्रजहीहेनम् ज्ञानविज्ञाननाशनम् इन्द्रियाणि पराण्याहो देन्द्रियेभ्यः परं मनः मनसस्तु परा बुद्धि यो बुद्धे परतस्तु स एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना दहि शत्रु महाबाहो कामरूपं दुरासदं कामरूपं दुरासदं ॐ तत्सत् श्रीमद्भगवद्गीतासूपनिषत्सु विद्यायां गुरुशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयः।